जगतां परमस्य पुंसः शक्तिस्वरूपिणि शिवे करुणार्द्रचित्ते लोकस्य शोकशमनाय कृतावतारे श्रीसारदेस्तु शिवदे तव सुप्रभातम्। बाल्ये भवस्य तमसः परिहारयित्रे लीलामनुष्य वपुषेऽथ गदाधराय दत्ते तदर्पित धियाप्त समस्त विद्ये श्रीसारदेस्तु शिवदे तव सुप्रभातम्। बाल्यात् परे वयसि भर्तरि संप्रवृत्ता उन्मत्त इत्यनुचितामवधूय वार्ताम् तद्दर्शनक्रमित दुर्गमदूरमार्गे श्रीरामकृष्णदयिते तव सुप्रभातम्। सन्न्यासिनं पतिमवीक्ष्य च नो द्विजाने सेवार्पितत्रिकरणे परिशुद्धचित्ते सत्साधनाचरमसीम्नि समर्पिताङ्घ्रे श्रीरामकृष्णपरमेश्वरि सुप्रभातम्। यामेव चात्मजननीं भवतारिणीं च सेवा परान्तु बुबुधे गुरुरस्तभेदः तस्याः समस्तजगतोऽस्य शरण्यमूर्तेः श्रीरामकृष्णदयिते तव सुप्रभातम्। आवृण्वतीं परमिकां प्रकृतिं स्वकीयाम् संसारिणीव बहुदुःखजले भवाब्धौ सर्वं सहि श्रितजनोद्धरणैकदीक्षे श्रीरामकृष्णदयिते तव सुप्रभातम्। गेहस्य मार्जनविधौ मम कर्म शान्तिम् नायात्यसङ्ख्यकरणैः क्रियमाणमेवम् आकस्मिकोक्तिविवृताखिलशक्तिरूपे श्रीरामकृष्णदयिते तव सुप्रभातम्। सुप्रभातम्। श्रीरामकृष्णदयिते तदधीनसत्त्वे तद्भक्तवृन्दपरिपालिनि मुक्तिदात्रे तद्भावरक्तहृदये तदभिन्नतत्त्वे मातः समस्तजगतां तव सुप्रभातम्। मातः समस्तजगतां तव सुप्रभातम्। मातः समस्तजगतां तव सुप्रभातम्।